एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। कोरोना विषाणोः संक्रमणस्य नियन्त्रण निरोधनयोः कृते क्रियान्विताः निषेधाज्ञायाः परीक्षणस्य सीमावृद्धेश्च क्रमे पश्चात्तन दिवसेषु संक्रान्तानाम् अपेक्षया प्राप्त स्वास्थ्य लाभानाम् जनानाम् अंकमानः वर्धमानो वर्तते। ह्यः चतुर्विंशते घण्टानाम् अवधौ सहस्र चतुष्टये द्वासप्तत्यधिक चतुश्शते च जनेषु कोरोना संक्रमणम् पुष्टिभूतमस्ति। षड् सहस्राणि एकपञ्चाशदुत्तर नवशतम् च जना संक्रमणात् मुक्ताः सन्ति। ह्यः सप्तदश सहस्राणाम् सप्तोत्तर नवशतस्य च जनानाम् कोरोना विषाणोः परीक्षणम् विहितमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्यः कोरोना संक्रमणेन द्वानवतिर्जनाः म्रियन्त इति अनेन मन्त्रालयेन सूचितमस्ति। स्वास्थ्य जनसंख्या मन्त्री शेरबहादुर तामाङ निगदति सर्वेभ्यः नागरिकेभ्यः निःशुल्कम् स्वास्थ्योपचारस्य व्यवस्थायै प्रयत्यते। मन्त्रालयेन ह्यः आयोजिते श्रव्यदृश्य प्रविधेः पत्रकार सम्मेलने मन्त्री तामाङ स्वास्थ्य सुरक्षण कोष कार्यक्रमस्य पुनः संरचनाम् विधाय सर्वेभ्यो नागरिकेभ्यो निःशुल्कम् स्वास्थ्योपचारस्य प्रबन्धः करिष्यते इति अज्ञापयत्। मन्त्री तामाङ विज्ञहि कोविड 19 तृतीय लहर्या नेपालेऽपि सम्भावनाम् आकलय्य एतया च बाल बालिकासु अधिक संक्रमणस्य उल्लेखनात् एतदनुसारेणैव पूर्व कार्यम् विहितमस्ति इति अबोधयत्। असौ सप्तसु एव प्रदेशेषु बाल बालिकानाम् उपचाराय सघनोपचार कक्षैः कृत्रिम श्वास प्रश्वासोपकरणैश्च सहिताः चिकित्सालयाः संस्थाप्यन्ते इति अज्ञापयत्। ह्य एव एमआईटी ग्रुप फाउण्डेशन संस्थया सहयोग स्वरूपेण संकलितानाम् प्राणवायु शक्तिवर्धक कोपकरणानाम् हस्तान्तरण कार्यक्रमे स्वास्थ्य जनसंख्या मन्त्री तामाङ कोविड 19 संक्रमणस्य निरोधन नियन्त्रणोपचार कार्येषु सहयोगाय सर्वान् आह्वयत। कार्यक्रमे आवासीयतर नेपालीभ्याम् शेष घले जमुना घले इत्याभ्याम् नेपालस्य नेपाली जनतायाश्च सेवायै संस्थापितया अनया फाउण्डेशन संस्थया आसन्न कोटित्रय रूप्यकाणाम् शतद्वयम् विंशतिश्च प्राणवायु शक्तिवर्धकोपकरणानि सहयोग स्वरूपेण हस्तान्तरितानीति संस्थायाः प्रबन्ध संचालक सुरेश चित्रकारः अज्ञापयत्। सर्वकारेण कोविड 19 विरोधिनः कोविशील्ड टीकाकरणस्य द्वितीय मात्राया स्थाने एस्ट्राजेनिका टीकाकरणं विधीयते। कोविशील्ड नामक टीकाकरणोत्पादकाभ्यां सीरम इन्स्टिच्यूट कोभ्याक्स नामधेयाभ्यां भारतीय संस्थानाभ्यां तत्कालं कोविशील्ड टीकाकरणं दातुं न शक्यते इत्युक्तं। तदनु स्वास्थ्य जनसंख्या मन्त्रालयेन कोविशील्ड टीकाकरणस्य स्थाने समान प्रकृतेः एस्ट्राजेनिका टीकाकरणं प्रदीयमानं वर्तते। स्वास्थ्य सेवा विभागस्य परिवार कल्याण महाशाखाया निर्देशक डाक्टर तारानाथ पोखरेलः भारतात् कोविशील्ड टीकाकरणम् अप्राप्तं सदपि तस्य विकल्पेन द्वितीय मात्राया टीकाकरणम् एस्ट्राजेनिका इत्यभिधेयम् विधीयते इति अज्ञापयत्। असौ अवोचत् कोविशील्ड एस्ट्राजेनिका चेति टीकाकरणद्वयम् एकस्मिन् एव संस्थाने एकेनैव सूत्रेण निर्मितमस्ति इति हेतोः अनयोः सूच्यौषधयोः ग्रहणे अन्तरं न भवति। सर्वोच्च न्यायालयेन कोविड 19 नियन्त्रणाय न्यूनीकरणाय च क्रियान्वयमानायाः निषेधाज्ञायाः समय अनलाइन वैद्युत सूचना सञ्जालेन विहितं कार्यं गृह प्रापण सेवां च नावरोद्धुम् यः सर्वकारस्य नाम्नि अन्तरिमादेशः प्रदत्तो वर्तते। न्यायाधीशद्वयस्य सपना प्रधान मल्लस्य डाक्टर कुमार चुडालस्य च न्यायपीठेन एतद् आदिष्टम् वर्तते। आवासीयतर नेपाली संघेन सर्वकाराय स्वास्थ्य सामग्र्यः सहयोग स्वरूपेण हस्तान्तरिताः सन्ति। आवासीयतर नेपाली संघस्य बेलायत क्यानाडा अस्ट्रेलिया चीनदेशीय शाखाभि ह्यः श्रव्य दृश्य प्रविधेर माध्यमेन हस्तान्तरण कार्यक्रमम् आयोज्य प्राणवायोः शतचतुष्टयम् त्र्यशीतिश्च शक्तिवर्धकोपकरणानि प्रवृत्तयः स्वास्थ्य सामग्र्यः स्वास्थ्य जनसंख्या मन्त्रिणे शेरबहादुर तामाङ इत्यस्मै हस्तान्तरिताः सन्ति। प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जबरा इत्यस्य स्वास्थ्य समस्यायाः कारणेन प्रतिनिधिसभाया विघटन सम्बद्ध न्यायिक प्रकरणस्य श्रवणं ह्यः स्थगितम्। प्रधान न्यायाधीशेन राणा इत्यनेन सहितानां वरिष्ठतम न्यायाधीशानां दीपक कुमार कार्की, मीरा खड्का, ईश्वर प्रसाद खतिवड़ा, डाक्टर आनन्द मोहन भट्टराई इत्येतेषां सांविधानिक न्यायपीठं गत रविवासरे संघटय्य श्रवणं प्रारभ्य ह्यस्तन दिवसाय श्रवणं निर्धारितम् आसीत्। नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देउवाविदस्य, नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पुरूषोत्तम दाहाल प्रचण्डस्य, नेतुः माधव कुमार नेपालस्य च मध्ये पश्चात्तन राजनैतिक परिस्थितेः विषये विमृष्टमस्ति। सभापतेः देउवाविदस्य बुढा नीलकण्ठवर्तिनी निवासे ह्यः विहितायां मेलवार्तायां एतेषु द्वितीय प्रदेश सर्वकारस्य, सुदूरपश्चिम प्रदेश सर्वकारस्य च पुनः संगठन प्रवृत्तिषु सामयिक राजनीतिक विषयेषु विमृष्टमिति सभापतेः देवाविधस्य स्वकीय सचिव भानुदेवा अज्ञापयत्। निवर्तमान संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ निगदति देशस्य समृद्ध जनप्रतिनिधिभिः मन्त्रिभिः कर्मचारीभिश्च निष्ठापूर्वकं दायित्वपूरणाय क्रियाशीलैर्भाव्यम्। संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते प्रस्थाना विवादन कार्यक्रमे असौ राष्ट्रस्य राजनीतिक स्थिति अत्यन्तं संकटापूर्ण तरला चास्तीति चर्चेन अवोचत् सर्वे धैर्यपूर्वकं कार्यं सम्पादनीयम् इति समाचारः।